अथ सप्तमोऽध्यायः श्रीभगवानुवाच मय्यासक्तमनः पार्थ योगं युञ्जन्मदाश्रयः असंशयं समग्रं मां यथा ज्ञाससि तशृणु ज्ञानं तेहं सविज्ञानम् इदं वक्ष्याम्यशेषतः यज्ञात्वा नेह भूयोज्ञ ज्ञातव्यम् अवशिष्यते मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये यततामपि सिद्धानां कश्चिद्मां वेति तत्त्वतः भूमेरपो नलो वायुः खं मनो बुद्धिरेव च अहङ्कार इति यं मे भिन्ना प्रकृतिरष्टधा अपरयाम् इतस्त्वन्याम् प्रकृतिम् विद्धि मे पराम् जीवभूतम् महाबाहो ययेदम् धार्यते जगत् एतद्योनीति भूतानि सर्वाणि उपधारय अहम् कृष्णस्य जगतः प्रभवप्रलयस्तथा मत्तः परतरम् नान्यत् किञ्चिदस्ति धनञ्जय मयि सर्वमिदम् प्रोतम् सूत्रे मणगणा इव रसोऽहमपि सुकौन्तेय प्रभास्मि स शिशूरयोः प्रणवः सर्ववेदेषु शब्दः खे पौरुषम् नृषु पुण्यो गन्धपृथिव्यांश्च तेजश्चास्मि विभावसो जीवनम् सर्वभूतेषु तपश्चास्मि तपस्विषु बीजम् माम् सर्वभूताणाम् विद्धि पार्थ सनातनम् बुद्धिर्बुद्धिमतामस्मिन् तेजस्तेजस्विनाम्यहम् बलम् बलवताम् चाहम् कामरागविवर्जितम् धर्माद्विरुद्धभूतेषु कामोऽस्मि भरतर्षभ येश्चैव सात्विका भावा राजसस्तामशाश्च ये मत्त एवैति तान् विद्धि नत्वाहम् तेषु ते मयि त्रिभिर्गुणैर्मयैर्भावेर् एवम् सर्वमिदम् जगत् मोहितम् नाभिजानाति मामेभ्यः परमव्ययम् दैविहेषा गुणमयि मम माया दुरत्तया मामेव ये प्रबध्यन्ते मायामेताम् तरन्ति ते न माम् दुष्कृणितो मूढा प्रपद्यन्ते न राधमाः मायया पहर्ता ज्ञाना आसुरम् भावमाश्रिताः चतुर्विधा भजन्ते माम् जनः सुकृतनोऽर्जुन अर्थो जिज्ञासुरार्थी ज्ञानी च भरतर्षभ तेषाम् ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते प्रियो हि ज्ञानिनोऽन्यार्थम् अहम् स च मम प्रियः उदारा सर्व एवैते ज्ञानित्तात्मैव मे मतम् आस्तितः स हि युक्तात्मा मामेवानुत्तमाम् गतिम् बहुनाम् जन्मनान्मन्ते ज्ञानवान् माम् प्रपद्यते वासुदेव सर्वमिति स महात्मा सुदुर्लभः कामस्तैस्तैरिदज्ञानः प्रपद्यन्त्यन्यदेवताः तम् तम् नियममस्ताय प्रकृत्या नियतस्वया यो यो याम्याम् तनुभक्तः श्रद्धायार्चितुमिच्छति तस्य तस्य चलाम् श्रद्धाम् तन्मेव विदधाम्यहम् सतया श्रद्धया युक्तः तस्य आरादमीहते लभन्तेश्च ततः कामान् मय्येव विहितान् हितान् अन्तवन्तु फलम् तेषाम् तद्भवत्यल्पमेधसाम् देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि अव्यक्तम् व्यक्तिमापन्नम् मन्यते माम बुद्धयः परम् भावमजानन्तो ममाव्ययमनुत्तमम् नाहम् प्रकाश सर्वस्य योगमायासमावृतः मूढोऽयम् नाभिजानाति लोको मामजवव्ययम् वेदाहम् समतितानि वर्तमानानि चार्जुन भविष्याणि च भूतानि माम् तु वेद न कश्चन इच्छा द्वेष समुत्थेन द्वन्द्वमोहेन भारत सर्वभूतानि सम्मोहम् सर्गे यान्ति परन्तप येषाम् त्वन्तगतम् पापम् जनानाम् पुण्यकर्मणाम् ते द्वन्द्वमोहनिर्मुक्ता भजन्ते माम् दृढव्रताः जरामरणमोक्षाय मामाश्रित्य यान्ति ये ते ब्रह्म तद्विदुः कृष्णन् अध्यात्मम् कर्म चाखिलम् सादिभूतादिदैवम् माम् सादियज्ञम् च ये विदुः प्रयाणकालेऽपि च माम् ते विदो युक्तचेतसः ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः